कामनी प्रकर सत्म सुकल्प प्रेक्ष लक्ष्याव्रते ससुरभिर् अभिपालयन्तम् लक्ष्मी सहस्र सत संभ्रम सेव्यमानम् गोविंदमादि पुरुषम् तमहं भजामि वेणुं क्वनन्तमरविन्द गलयताक्षं वरहावतं समसितं बुध सुन्दराङ्गम् कन्दर्पकोटिकमनीय विसे सशोभम् प्रतिभाविताभिर्य एव निजरो तया कलाभि गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहां भजामि प्रेमाञ्जनचरितभक्तिविलोचनेन सन्तः सदैव हृदयेश विलोकयन्ति यं श्यामसुन्दरमचिन्त्यगुणस्वरूपम् गोविन्दमादिपुरुषं तमहां भजामि प्रमादिमूर्तिशुकलानि यमेन तिष्ठन् स्वयं समभव परम पुमानयो गोविन्दमादिपुरुषं तमहां भजामि यस्य प्रभा प्रभवतो जगदण्डकोटि कोटीश्वशेष वसुदादि विभूति भिन्नम् तत्ब्रह्मनिष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि यस्य जगदण्डसतानि सूते त्रैगुण्यतद्विषयवेन्वितायमाना सत्त्वावलम्बि परसत्त्वं विशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहां भजामि चिन्मयरसात्मतया मनसु यः प्राणिनां प्रतिफलं स्मरतामुपेत्य लीलायितेन भुवनान् जयति अजस्रं गोविन्दमादिपुरुषं तमहां भजामि ते प्रभावनिचया विहिताश्च येन गोविन्दमादिपुरुषं तमहां भजामि सृष्टिस्थितिप्रलयसाधनशक्तिरेका ख्यायैव यस्य भुवना निविभर्ति दुर्गा इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि। यथादधि विकार विशेष योगा चल जायते नहीं तथा पृथगस्ति हेतो य संभूतां अपि तथा समुपैति कार्या गोविन्दमादिपुरुषं तमहां भजामि दीपार्चिरेव हि दशान्तरम् अभ्युपेत्य दीपायते विव्रत हेतु समानधर्मा यस्ताद्रगेव हि च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहां भजामि व्यपरां स्वमूर्तिं गोविन्दमादिपुरुषं तमहां भजामि यस्यैकनिश्वसितकालमथावलम्ब्य जीवन्ति लोम विलजा जगदण्डनाथा विष्णुर्महां स इह यस्य कला विशेषो गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां सकलेषु निजेषु तेज स्वीयं कियत् प्रकटयत्यपि तद्वदत्र ब्रह्माय एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहां भजामि पल्लवं युगं विनिधाय कुम्भ द्वन्द्वे प्रणाम समये सगणाधिराज विघ्नान् विहन्तुमलमस्य जगत् त्रयस्य गोविन्दमादिपुरुषं तमहां भजामि अग्निर्मही गगनमम्बुमरोक्तिसश्च कालस्तथात्ममनसीति जगत्त्रयानि यस्मात् भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि यच्चक्षुरेष सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेष तेजा यस्याज्ञया भ्रमति संभृतकालचक्रो गोविन्दमादिपुरुषं तमहां भजामि पतगा वधयश्च जीवा यदत्त मात्र विभव प्रकट प्रभावा गोविंदमादि पुरुषं तमहं भजामि यस्तन्द्र गोपमथवेन्द्र मोत्स्वकर्म बन्धानुरूप फल भाजन मातनोति कर्माणि निर्दहति किन्तु च भक्ति भाजम् गोविन्दमादि पुरुषं तमहं भजामि यम क्रोध काम सहज प्रणयादि भीति वात्सल्य मोह गुरु गौरव सेव्य भावे संचिन्त्य तस्य सदृशिं तनुमापुरेते गोविंदमादि पुरुषं तमहं भजामि तमहं भजामि गोविंदमादि पुरुषं तमहं भजामि गोविंदमादि पुरुषं तमहं भजामि गोविंदमादि पुरुषं तमहं भजामि श्रियकान्ताकान्तः परमपुरुषकल्पतरवो द्रुमा भूमिश्चिन्तामणि गणमयी तोयम् अमृतम् कथागानं नाट्यं गमनमपि वंसि प्रियसखी चिदानन्दं ज्योति परमपि तत् आस्वाद्यमपि च स यत्र क्षीराब्धिः स्रवति सुरभिभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः भजे श्वेतद्वीपं तमहम् इह गोलोकम् इतियम् विदन्तस्ते सन्तः क्षते विरलचारा कतिपये।